సమూర్ఛతాం రజత భిత్తి మయూఖజాలైః ఆలోల పాదపలతాంతర నిర్గతానాం ఘర్మత్యుతేరిహ ముహుః పటలాని ధామ్నాం ఆదర్శ మండల నిభాని సముల్లసంతి. సమూర్ఛతామితి ఇహ అద్రౌ రజత భిత్తిమయూఖజాలైః సమూర్ఛతాం బహుళీభవతాం ఆలోలానాం పాదపలతానాం తరుశాఖానాం అంతరేషు రంధ్రేషు నిర్గతానాం ప్రసృతానాం ఘర్మద్యుతేః ఉష్ణాంశోః ధామ్నాం తేజసాం ఆదర్శమండలనిభాని దర్పణబింబసదృశానీతి ఉపమాలంకారః. పటలాని మండలాని ముహుః వారం వారం సముల్లసంతి, పునఃపునః స్ఫురంతి, నతు సాతత్యేన. లతానాం ఆలోలత్వాభావాత్ తచ్చ న అన్యత్ర మృత్పాషాణాదిప్రాయే సంభవతీతి భావః. శుక్లైర్మయూఖనిచయైః పరివీతమూర్తిః వప్రాభిఘాత పరిమండలితోరుదేహః శృంగాణ్యముష్య భజతే గణభర్తృరుక్షా కుర్వన్ వధూజన మనస్సు శశాంక శంకాం. శుక్లైరితి శుక్లైః మయూఖనిచయైః శుభ్రకిరణసమూహైః పరివీతమూర్తిః వ్యాప్తదేహః వప్రాభిఘాతేన వప్రక్రీడయా పరిమండలితః వర్తులీకృతః ఉరుదేహః బృహచ్చరీరం యస్య తథోక్తః గణభర్తుః ప్రమథనాథస్య ఉక్షా వృషభః. ఉక్షా నడ్వాన్ బలీవర్ద ఋషభో వృషభో వృషః ఇత్యమరః. వధూజనమనస్సు శశాంకశంకాం చంద్రభ్రాంతిం కురువన్ తేషాం మౌగ్ధ్యాదితి భావః. అముష్య అద్రేహే శృంగాణి భజతే సేవతే అత్ర శంకాశబ్దస్య సందేహార్థత్వే సందేహాలంకారః. భ్రాంతిపరత్వే భ్రాంతిమదలంకారః. యథేచ్ఛసి తథాస్తు నవోక్ష విశేషణోత్థేన కావ్యలింగేన అంగాంగిభావేన సంకీర్యతే. సంప్రతి లబ్ధజన్మశనకైః కథమపి లఘుని క్షీణపయస్యుపేయుషి భిదాం జలధరపటలే ఖండితవిగ్రహం బలభిదో ధనురిహ వివిధాః పూరయితుం భవంతి విభవః శిఖరమణిరుచః. సంప్రతీతి ఇహ అద్రౌ వివిధాః నానావర్ణాః శిఖరమణిరుచః. సంప్రతి శరది ఇత్యర్థః. లఘుని అగురూణి కుతః. క్షీణపయసి అత ఏవ భిదాం భేదం. షిద్భిదాదిభ్యోంగ్ ఇత్యంగ్ ప్రత్యయః. ఉపేయుషి గతే జలధరపటలే మేఘమండలే కథమపి శనకైః లబ్ధజన్మ ఉత్పన్నమిత్యర్థః. అత ఏవ ఖండితవిగ్రహం చిన్నస్వరూపం బలభిదః ఇంద్రస్య ధనుః పూరయితుం విభవః సమర్థాః భవంతి. అత్ర ఇంద్రధనుషః మణిరుచీనాం అసంబంధే సంబంధకథనాత్ అతిశయోక్తిరలంకారః. వంశపత్రపతితం వృత్తం దింగ్ముని వంశపత్రపతితం భరణభరలగైః ఇతి లక్షణాత్. స్నపితనవలతా తరుప్రవాలైః अमृतलवश्रुतिशालिभिर्मयूखैः सततमसितयामिनीषु शम्भोः अमलयतीह वनान्तमिन्दुलेखा स्नपितेति इह अद्रौ शम्भोः इन्दुलेखा स्नपितानि सिक्तानि नवानि लतानां तरूणाञ्च प्रवालानि यैः तैः अमृतलवश्रुत्या अमृतबिन्दुनिस्यन्देन शालन्ते ये तैः मयूखैः सततं सर्वकालम् असितयामिनीषु कृष्णपक्षरात्रिष्वपि वनान्तम् अमलयति धवलयति अन्यत्र नैतदस्तीति व्यतिरेकः व्यज्यते क्षिपतियोनुवनं विततां बृहद्बृहति कामिव रौचनिकीं रुचम् अयमनेकहिरण्मयकन्दरः तव पितुर्दयितो जगतीधरः क्षिपतीति अथ यः अद्रिः अनुवनं विततां रौचनिकीं रुचम् सौवर्णीं कान्तिमित्यर्थः रोचनया रक्तां रौचनिकीं लाक्षारोचनशकलकर्दमाट्ठक् इति ठक् टिड्ढाणय् इत्यादिना ङीप् उत्प्रेक्षते बृहती चासौ बृहतिका च तां महोत्तरासङ्गमिव द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा इत्यमरः क्षिपति प्रसारयति अनेकाः हिरण्मय्यः कन्दराः यस्य सः हिरण्मयशब्दः दाण्डिनायन इत्यादिना निपातनात् साधुः अयम् पुरोवर्ती गिरिः इत्यर्थः तव पितुः इन्द्रस्य दयितः प्रियः जगत्याः धरः जगतीधरः यः ते गन्तव्यः इन्द्रकीलाख्य इत्यर्थः सक्तिं जवादपनयत्यनिले लतानां वैरोचनैर्द्विगुणिताः सहसामयूखैः रोधो भुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति सक्तमिति अमुत्र अमुष्मिन् अद्रौ अनिले जवात् झटिति लतानां सक्तिम् अन्योन्यसङ्गम् अपनयति सति सहसा हठात् वैरोचनैः सावित्रैः मयूखैः द्विगुणाः द्विरावृत्ताः कृताः इति द्विगुणिताः गुणस्त्ववृत्तिशब्दादिष्विन्द्रियामुख्यतन्तुषु इति वैजयन्ति हिरण्मयीनां हिरण्यविकाराणां दाण्डिनायन इत्यादिना निपातनात् साधुः रोधोभुवां तटभुवां भासः मुहुः तडिद्विलसितानि विडम्बयन्ति अनुकुर्वन्तीत्यर्थः उपमालङ्कारः कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः इह मदस्नपितैरनुमीयते सुरगजस्य गतं हरिचन्दनैः कषणेति इह अद्रौ कषणेन कण्डूयनेन यः कम्पः तेन निरस्ताः महाहयः महासर्पाः येभ्यः तैः क्षणम् विमत्तमतङ्गजवर्जितैः मत्तमतङ्गजरहितैः कुतः मदस्नपितैः ऐरावतमदसिक्तैः इत्यर्थः मितां ह्रस्वः इति ह्रस्वः हरिचन्दनैः च चन्दनद्रुमैः सुरगजस्य ऐरावतस्य गतं प्राप्तिः अनुमीयते। हरिचन्दनविशेषणैः काव्यलिङ्गम् उन्नेयम्। जलदजालघनैरसिताश्मनाम् उपहतप्रचयेह मरीचिभिः भवति दीप्तिरदीपितकन्दरा तिमिरसंवलितेव विवस्वतः। जलदेति इह अस्मिन् अद्रौ जलदजालघनैः मेघवृन्दसान्द्रैः असिताश्मनाम् इन्द्रनीलानां मरीचिभिः दीधितिभिः। भानुः करो मरीचिस्त्री पुंसयोर्दीधितिस्त्रियाम् इत्यमरः। उपहतप्रचया विघट्टितसङ्घाता अत एव अदीपितकन्दरा अप्रकाशितगह्वरा। विवस्वतः दीप्तिः तिमिरैः संवलिता संहता व्यामिश्रितेव भवतीत्युत्प्रेक्षा। भव्यो भवन्नपि मुनेरिह शासनेन क्षत्रे स्थितः पथि तपस्य हतप्रमादः। प्रायेण सत्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुमसुखानि विनान्तरायैः। भव्य इति इह अद्रौ भव्यः शान्तः भवन्नपि मुनेः व्यासस्य शासनेन इन्द्राराधनरूपेण क्षात्रे पथि क्षत्रियमार्गे स्थितः। गृहीतशस्त्र एवेत्यर्थः। हतप्रमादः अप्रमत्तः सन् तपस्य तपश्चर्यां कुरु। तपस्येति कर्मणो रोमन्थतपोभ्यां वर्तिचरोः इति क्यङ् तदन्ताद्धातोः लोट्। न च सर्वभूतहितकारिणः मे प्रमादः किं करिष्यतीति विश्वसितव्यमित्यर्थान्तरन्यासेन आह। हि यस्मात् प्रायेण बाहुल्येन प्रायो वयस्य नशने मृतौ बाहुल्यतुल्ययोः इति हेमचन्द्रः। हितम् अर्थं करोतीति हितार्थकरे विधौ व्यापारे सति। अन्तरायैः विघ्नैः विना श्रेयांसि लब्धुम् असुखानि अशक्यानीत्यर्थः। अत एव शकधृष इत्यादिना समानकर्तृकेषु तुमुन्। अकारणवैरिणः सर्वत्र सर्वस्यापि सन्तीति भावः। मा भूवन्नपथहृतस्तवेन्द्रियाश्वाः सन्तापे दिशतु शिवः शिवां प्रसक्तिम्। रक्षन्तस्तपसि बलं च लोकपालाः कल्याणीमधिकफलां क्रियां क्रियासुः। मा भूवन्निति तव इन्द्रियाण्येव अश्वाः ते। अपथेन हरन्तीति अपथहृतः मा भूवन्। त्वाम् अपथं मा निनीषुः इत्यर्थः। माङ्गि लुङ् इत्याशीरर्थे लुङ्। सन्तापे तपःक्लेशे सति शिवः शिवां साधीयसीं प्रसक्तिं प्रवृत्तिम् उत्साहं दिशतु। किञ्चेति चार्थः। लोकपालाः इन्द्रादयः तपसि विषये बलं शक्तिं रक्षन्तः वर्धयन्तः सन्तः कल्याणीं साध्वीं क्रियाम् अनुष्ठानम् अधिकफलां क्रियासुः कुर्वन्तु। करोतेः आशिषि लोट्। इत्युक्त्वा सपदि हितं प्रियं प्रियार्ह्ये धाम स्वं गतवति राजराजभृत्ये। सोत्कण्ठम् किमपि पृथा सुतः प्रदध्यौ सन्धत्ते भृशमरतिम् हि सद्वियोगः इति प्रियार्ह्ये राजराजभृत्ये इति पूर्वोक्तम् हितम् प्रियम् वचनमिति शेषः उक्त्वा सपदि स्वं स्वकीयं धाम स्थानं गतवति सति पृथासुतः अर्जुनः सोत्कण्ठं सौत्सुक्यं किमपि प्रदध्यौ चिन्तयामास तथा हि सद्वियोगः सुजनवियोगः भृशम् अरतिं व्यथां सन्धत्ते करोतीत्यर्थः अर्थान्तरन्यासः तमनतिशयनीयं सर्वतः सारयोगात् अविरहितमनेकेनाङ्कभाजा फलेन अकृशमकृशलक्ष्मीश्चेतसा संशितं सः स्वमिव पुरुषकारं शैलमभ्याससादा तमिति अकृशाः पूर्णाः लक्ष्म्यः शोभाः यस्य सः अकृशलक्ष्मीरिति बहुवचनाश्रितः बहुव्रीहिः एवञ्च उरः प्रभृतिभ्यः इति कप्रत्ययानवकाशः तत्र लक्ष्मीशब्दस्य एकवचनान्तस्यैव पाठात् नापि नद्र्युतश्च इत्यस्य अवकाशः उरःप्रभृतिपाठसामर्थ्यादेव शैशिकस्तु वैभाषिक इति अविरोधः सः अर्जुनः सर्वतः सर्वत्र सारयोगात् उत्कृष्टबलप्रयोगात् सारो बले स्थिरांशे च न्याय्ये क्लीबं वरेत्रिषु इति उभयत्रापि अमरः अनतिशयनीयम् अनतिक्रमणीयम् अनेकेन बहुना अङ्कभाजा समीपं गतेन शीघ्रभाविना इति यावत् फलेन कार्यसिद्ध्या अविरहितम् अशून्यम् कार्यसिद्धेः अवश्यं साधकमित्यर्थः अकृशम् अतनुम् चेतसा आशंसितम् प्राप्तुमिष्टम् शैलम् इन्द्रकीलम् स्वम् आत्मीयम् पुरुषस्य कारः कर्म तम् पुरुषकारम् उक्तविशेषणविशिष्टम् पौरुषमिव अभ्याससाद प्राप्तवान् मालिनीवृत्तम् इति श्रीमहामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितायाम् किरातार्जुनीयकाव्यव्याख्यायाम् घण्टापथसमाख्यायाम् पञ्चमः सर्गः समाप्तः।